मे मङ्गलानाञ्जकर्ता वन्दे शङ्कर वन्दे शरदा वन्दे ृतदता Thank you.